ओम सहना
Shall we start Prarthana?
सदाशिवन महोदय, कैन यू हियर मी ऑल?
या
हाँ, यस, नाउ आई एम गोइंग टू म्यूट यू. Introduction. Mama nama Anjali. Mama nama Anjali. Bhavataha nama kim? Balakrishna mahodaya vadatu.
Mama nama Balakrishna. Bhavatyaha nama kim?
Very good. Mama nama Anjali. Now, one by one, you unmute yourself and introduce yourself, please. Nivedita Bhagini.
मम नाम निवेदिता, भवतः नाम किम्?
मम नाम अंजलि. अधुना वन मेल शुड आंसर. मम नाम अंजलि, भवतः नाम किम्? हु इज देयर? बालकृष्ण महोदय, सदाशिव महोदय.
मम नाम सदाशिवन, भवत्याः नाम किम्?
मम नाम अंजलि, भवत्याः नाम किम्? नाउ वन लेडी शुड आंसर. हु इज देयर? उमा भगिनी, उमा भगिनी, अनम्यूट योर सेल्फ एंड आंसर. अनम्यूट योर सेल्फ उमा भगिनी. उमा भगिनी, आर यू देयर? जया भगिनी, जया भगिनी, कैन यू हियर मी? जया भगिनी, can you hear me?
Yes, yes, I can.
Mama nama Anjali, bhavatyaha nama kim? Jaya bhagini, vadatu.
Mama nama Jaya, bhavatyaha nama kim?
Mama nama Anjali, bhavataha nama kim? Kamasti tatra adhuna? बालकृष्णन् महोदयः उत्तरं दत्तवान्. सदाशिवन् महोदयः उत्तरं दत्तवान् अस्ति, सः वदतु। कोऽपि अस्ति वा तत्र? हु इस् देयर्?
ओके,
महोदय
मम नाम मञ्जुनाथः, भवत्याः नाम किं?
उत्तमं, मम नाम अञ्जलि, भवत्याः नाम किम्? अधुना का अस्ति तत्र? उमा भगिनी अस्ति वा? Don't we have answered? Please unmute yourself.
Balakrishnan ji, mama nama Sadashivan, bhavatah nama kim?
मम नाम बालकृष्ण, भवतः नाम किम्?
मम नाम सदाशिवन्। जयाजी, मम नाम सदाशिवन्, भवत्याः नाम किम्?
मम नाम जया, भवतः नाम किम्?
मम नाम सदाशिवन्।
मम नाम गायत्री, भवत्याः नाम किम्? उषा।
मम नाम अञ्जलि, भवतः नाम किम्?
जित्री, मम नाम सदाशिवन्, भवतः नाम किम्?
मम नाम गायत्री, भवतः नाम किम्?
मम नाम सदाशिवन्। धन्यवादः।
बालकृष्णन् महोदय उत्तरं ददातु। मम नाम अञ्जलि, अहं भारतदेशे वसामि, भवतः नाम किम्?
मम नाम बालकृष्णः, अहं भारतदेशे वसामि, केरलायां वसामि।
वेरि गुड्, वेरि गुड्। मम नाम अञ्जलि, भवत्याः नाम किम्? निवेदिता भगिनी उत्तरं ददातु।
मम नाम निवेदिता।
मम नाम अञ्जलि, अहं भारतदेशे वसामि, भवत्याः नाम किम्?
मम नाम निवेदिता।
एकवारं
अहं मुम्बै नगरे वसामि.
उत्तमम् उत्तमं वेरि गुड्.
मम नाम सदाशिवन्, अमे हैदराबाद् नगरे वसामि.
हा वदतु अधुना. दया भगिनी वदतु. दया भगिनी, ऐ काण्ट् हियर् यु.
क्षम्यताम्. मम नाम जया, अहं कोलम्बस् नगरे वसामि.
उत्तमम्. अधुना पश्यतु मम स्क्रीन्. कन् यू सी मै स्क्रीन्?
यस् यस्.
सः स्यूतः. अस्तु, अन्म्यूट् करोतु. निवेदिता भगिनी.
यस्. सः कः? सः स्यूतः.
वेट् 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 हा, अधुना वदतु. अधुना वदतु.
सः कः? सः चोलः.
उत्तमम्, अति उत्तमम्. अन्म्यूट् युवर् सेल्फ्. गायत्री भगिनी.
Yes.
गायत्री भगिनी, अधुना वदतु.
सः कः? सः बालकः.
वेरि गुड्. अन्म्यूट् युवर् सेल्फ्. नेक्स्ट् वन् उमा भगिनी. उमा भगिनी, उमा भगिनी, अन्म्यूट् युवर् सेल्फ्. उमा भगिनी अस्ति वा? गायत्री भगिनी, हव् यू आन्सर्ड्?
या, ऐ आन्सर्ड्, राइट्? केन् यू हियर् मी?
यस् यस्, ऐ केन् हियर् यू. सो एनी लेडी इस् देयर्? हा, वदतु वदतु.
सः कः? सः मार्जारः.
उत्तमम्, अति उत्तमम्. अन्म्यूट् युवर् सेल्फ् नौ. बालकृष्णन् महोदयः वदतु.
सः कः? सः रथः.
उत्तमम्, अति उत्तमम्. अधुना कः अस्ति तत्र? सदाशिवन् महोदय, अधुना वदतु.
एषः कः? एषः मन्थनः.
मन्थानः वदतु एकवारं
एषः कः एषः मन्थानः
मन्थानः मन्थानः अस्तु बै सीङ्ग् हेण्ड् वि केन् गेस् वट् टु से एषः और् सः गोट् इस् सो नेक्स्ट् मञ्जुनाथमहोदयः
एषः मकरः
वेरि गुड् अद्यापि कोऽपि अस्ति वा कः उत्तरं ददाति हु विल् आन्सर् दिस् क्वश्चन् सी हियर् अण्ड् टेल् मी
एषः कः एषः वैद्यः
उत्तमम् वदतु अधुना फ्रोम् लेडीस् पार्ट् समवन् शुड् आन्सर् हु इस् देर्
एषः कः एषः शुनकः एषः
अथवा उत्तमम् अधुना वदतु अन्या कोऽपि अस्ति वा तत्र का वदति
एषः दीपः
उत्तमम् अधुना सदाशिवन् महोदय वदतु
एषः कः
पश्यतु केन् यु सी द स्क्रीन् सदाशिवन् महोदय केन् यु
विद्युत् दीपः
सः कः
सः कः सारि सः कः सः विद्युद्दीपः एषः कः एषः गजः
एषः कः एषः करदीपः
एषः करदीपः सः कः सः चषकः
चषकः
एषः कः एषः रामः
एषः कः एषः रामः
सः कः सः हस्तः
सः कः सः हस्तः
सः कः सः हस्तः
एषः कः एषः पादः
एषः कः एषः पादः
एषः कः
एषः
कः दर्पणः
एषः दर्पणः एषः कः एषः वानरः सः कः सः पर्वतः
पर्वतः
सः कः सः पर्वतः
सः कः
सः मण्डपः
एषः मण्डपः
सः मण्डपः
सः मण्डपः
एषः कः
प्रकोष्ठः
सः विद्यालयः
सः समसः
सः देवालयः
सः दन्तः
सेवा विद्यामर्थं च साधयेत्.
कणशः कणशश्चैव विद्यामर्थं च साधयेत्.
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्.
I think she is not active.
Thank you.
सः दत्तकूचः
सः दन्तकूचः
सः कः सः कूर्मः एषः वृक्षः
एषः वृक्षस्य
आकारान्त पुल्लिङ्गशब्दः
तत् किं तत् विमानम् तत् किं तत् विमानम्
तत् किं तत् विमानम्
तत् मस्ट् बि यूस् फार् नपुंसकलिङ्ग
तत् विमानम्
तत् लोकयानम्
तत् किं तत् लोकयानम्
तत् लोकयानम्।
तत् किं तत् लोकयानम्
तत् किं लोकयानम्
Anjali Bhagini, we are not able to hear you for quite some time.
Tat kim tat lokayana.
निवेदिता भगिनी कृपया वदतु प्लीज टेल मी कैन यू हियर मी
यस आई कैन हियर यू नाउ
Okay, thank you. Please unmute yourself, all of you, and I will ask you one by one and answer it. And who is that kid? I want to know his name. Usha Bhagini?
Tat Kim? तत् नेत्रं तत् नयनम्
उत्तमम्
धन्यवादः
अधुना जया भगिनी वदतु जया भगिनी
एतत् किम् एतत् व्यजनम्
उत्तमम् अधुना वदतु गायत्री भगिनी वदतु
एतत् किम् एतत् उरुकम्
उत्तमम् यु गाट् इट् नौ इफ् द वर्ड् इस् न्यूटर् जेण्डर् देन् एण्ड् तत् एण्ड् एतत् टु वर्ड्स् वि आर् गोयिङ्ग् टु यूस् तत् फार् फार् अवे and etat for nearby got this now who is there from ladies pass who have not yet given answer please
tat
unmute
kim,
yourself
pushpam
tat kim tat pushpam
balakrishnan mahodaya
तत् किं तत् पुष्पम् एतत् किम् एतत् पत्रं पर्णम् एतत् दलम्
एतत् किम् एतत् पत्रम् एतत् परं पर्णम् एतत् दलम्
एतत् किम् एतत् पत्रम् एतत् पर्णम् एतत् दलम्
एतत् दलम्
एतत् पत्रम्
तत् जलम्
तत् किम् तत् जलं
जलं
तत् जलम् तत् किं तत् जलम्
एतत् किम् एतत् वातायनम्
एतत् वातायनम्
एतत् किम् एतत् वातायनम्
एतत् किम्
एतत् द्वारम्
एतत् किम् एतत् नगरम्
एतत् किम् एतत् नगरम्
एतत् किम् एतत् नगरम्
I have a small doubt.
Sevapalam.
Tat kim tat sevapalam.
Tat sevapalam.
Sevapalam.
Tat gayabhagini uttaram dadat.
Tat sevapalam.
Etat kim?
Gayabhagini. Etat kim asti va? Pashatu, pashatu. See this hand, see this hand.
Tat kim?
Ah, uttamam. Tat kim tat sevapalam. निवेदिता भगिनी अधुना उत्तरं ददातु निवेदिता भगिनी
एतत् एतत् द्राक्षफलम्
एतत् द्राक्षफलम्
एतत् किम् एतत् द्राक्षफलम्
एतत् किम् एतत् द्राक्षफलम्
एतत् किम्
एतत् किं एतत् द्राक्षफलम्
तत् किं तत् नारङ्गफलं
नारङ्गफलं
तत् किं
किं तत् नारङ्गफलं
तत् किं तत् नारङ्गफलं
किं तत् नारङ्ग
तत् किं तत् कदलीफलं
कदलीफलं
तत् किं तत् कदलीफलं
एतत् किम् एतत् आम्रफलम्
एतत् किम् एतत्
आम्रफलम्
एतत् किम् आम्रफलम्
तत् किं तत् भोजनं
तत् भोजनं
तत् किं तत् भोजनं
तत् किं तत् भोजनम्
एतत्
एतत् किम् एतत् पयोहिमम्
एतत् किम् एतत् पयोहिमम्
पयोहिमम्
एतत् किम् एतत् पयोहिमम्
तत् किम्
तत्
तत् फेनकम् फेनकम्
तत् फेनकम्
एतत् किम् एतत् नाणकम्
एतत् किम् एतत् नाणकम्
एतत् किम् एतत् नाणकम्
तत् किं तत् उपनेत्रं
तत् उपनेत्रं
तत् उपनेत्रं
तत् किं तत् उपनेत्रं
तत् किं तत्
मधुनाथमहोदय मधुनाथमहोदय वदतु निवेदिता भगिनी
तत् किं तत् उपनेत्रं
तत् किं तत् उपनेत्रम्
उत्तमं
किं तत् उपनेत्रम्
एतत् किम् एतत् भोजनगृहम्
तत्
एतत् किम्
तत् किम् तत् भोजनगृहम्
तत् भोजनगृहम्
तत्
तत् किम् तत् चरणम्
चरणम्
तत् किं तत् चरणम्
Okay. Is a feet can be also a masculine gender and neutral gender? charanam and also padah.
Padah.
Tat kip tat padah.
Charanam.
सः कः सः पादः
वाट् इस् द डिफ़रेन्स् बिट्वीन् सः कः अण्ड् एतत् किं तत् किं
चरणम् इस् न्यूटर् जेण्डर् तत् चरणं पादः इस् मास्कुलेट् सो सः पादः. The difference is only in the gender.
Okay. Tat kim tat peshakam.
Tat kim tat peshakam.
Tat kim tat peshakam.
Tat kim tat udgrayanam.
एतत् गृहम्
गृहम्
एतत् किम् एतत् गृहम्
एतत् किम् एतत् मिश्रकम्
एतत् किम्
एतत् व्याधरणम्
व्याघरणम्
व्याघरणम् तत् किं तत् युतकम्
रेलयानम्
एतत् कङ्कणम्
एतत् किम् एतत्
कङ्कणम्
इस् बेङ्गल् आर् ब्रेस्लेट् तत् किं तत् पत्रं
तत् पत्रं
तत् किं तत् पत्रम्
एतत् किम् एतत्
सङ्गणकम्
एतत्
केशः ललाटकम्
निवेदिता भगिनी केन् यु हियर् मी केन् यु हियर् मी
ऐ केन् हियर् यु
ओके ओके ऐ वाण्ट् टु नो 15 स्टूडेण्ट्स् आर् देर् बट् आल् ऐ काण्ट् हियर् आल् युर् वाय्स् ऐ काण्ट् हियर् आल् आफ् यु सो गिव् आन्सर् one by one but all of you
mama nama sadashivan keshaha lalatam bruhu netram karnaha mukam griva chibukam kapolaha nashika mastakam
mama nama balakrishna ha keshaha
sadashivan mahodaya sadashivan mahodaya please unmute yourself Please unmute yourself.
Mama nama Balakrishnaha, Keshaha, Lalatam, Bruhu, Netram, Karnaha, Mukham, Griva, Chibukam, Kapolaha, Nasika, Mastakam.
Mama nama Nivedita, Kesha, ललाटं भ्रूः नेत्रं नासिका कर्ण कपोलः मुखं शीबुकं ग्रीव
मम नाम उषा केशः ललाटं भ्रूः नेत्रं कर्णः मुखं ग्रीवा चिबुकं कपोलः नासिका मस्तकं धन्यवादः
मम नाम मञ्जुनाथः वदनं मुखं केशः ललाटं ब्रूः नेत्रं कर्णः मुखं ग्रीवा चिबुकं कपोलः नासिका मस्तकं
मम नाम गायत्री अञ्जलि भगिनी केन् यु गो बेक् टु द प्रीवियस् वन् Or should I say from this? Mukham, Dantaha, Jihva, Adharaha, Aushtav. Dhanyavadaha.
Aushtav.
Ostom is jaws or lips?
Anjali Bhagini, we can't hear you again.
Dantaha, Jihva, Adaraha, Ostom.
Baba Nama Vignajit, Dantaha, Jihva.
You can hear me now?
Ostom.
Yeah, now we are able to hear you.
Yes, yes.
Ha. Okay, thank you.
Mama nama Vignajit, Mukham, Dantaha, Jiva, Adaraha, Oshtav.
Dhanyavadaha.
Shariram, Astaha. Karamulam, Eshah Bahuhu, Udaram, Nadhihi, Katihi, Vakshasthalam, Kandaha, Kurparaha,
Shariram, Astaha, Karamulam, Bahuhu, Udaram, Nabihi, Katihi, Vachastalam, Skandaha, Kurparaha, Dhanivadam.
Dehaha va shariram, Hastaha, Karamulam, Eshaha bahuhu, Udaram, Esha nabihi, Esha Katihi, Vakshastalam, Kandaha, Kurparaha, Dhanyavadaha.
Deha Shariram, Hastaha, Karamulam, Esha Bahu, Udaram, Esha Nabihi, Esha Nabihi, Esha Katihi, Vakshastalam, Skandaha, Kurparaha.
Padaha, Eshaha, Uruhu, Etat, Janu, Janga. Kutaha, Charanam, Kapalaha, Asti, Etat,
Padaha,
Eshaha,
Etat, Janu, Jangaha, Janga, Kutaha, Charanam, Kapalaha, Etat, Asti.
Mama Nama Vignajit, Padaha, Yurat, Uruhu, Janu, Gutaha, Karnam, Charnam, Kapalaha, Asti. Dhanyavadaha.
Thank you.
कण्ठः मस्तिष्कं हृदयं
हृदयं कण्ठः मस्तिष्कम्
कण्ठः हृदयं मस्तिष्कम्
कण्ठः मस्तिष्कं हृदयम्
कण्ठः मस्तिष्कं हृदयम्
कण्ठः मस्तिष्कं हृदयम्
I am not able to hear Anjali Bhagini. Are others able to hear her?
No, I think she is frequently going silent.
Okay, thank you.
Any other diversions, Anjali Bhagini ji?
I request everyone to excuse me as I have to leave now. Vayam punar milamaha. Dhanyavada.
Dhanyavada.
Keep that vibhadam.
Nivedita Bhagini, can you hear me?
Yes, now I can hear you. I can hear you now.
I can't hear you. What you are saying?
Can you hear me?
Please repeat. Please repeat.
I can hear you. Can you hear me?
Yes, yes. I can hear you. Hear you.
Wonderful.
All of you are hearing me. Yes. We will proceed. See here. Can you see my screen?
Can you
see my screen? Yes. All are there.
I mean, only one more person is left. Jaya Bhagini is here with me. That's it.
Yeah, I'm here. I'm able to hear you now.
Okay. We will proceed. Adhuna vadatu tat kim.
Tat kim tat vimanam.
Uttamam. Anyat kopi asti vatatra. Who is there? Vadatu.
Tat kim tat pustakam.
Very good. Saraswati Bhagini, are you there? Saraswati Bhagini, adhuna vadatu. Saraswati Bhagini, do you hear me? Do you hear me, Saraswati Bhagini? Only three are there.
Yes.
Saraswati Bhagini, Jaya Bhagini and Nivedita Bhagini. All are left now. Why they left?
They thought you have left the class, so they left, I believe.
No, I haven't yet told you I am quitting.
Yes.
So, Aduna yes copy as the Padatu.
Tata Kim Tata Lokayanam.
Uttamam. Aduna Vadatu. Jaya Bhagini, Vadatu.
Tat Kim Tat Netram Athava Tat Nayanam.
Uttamam. Saraswati Bhagini, Vadatu. Saraswati Bhagini?
Saraswati Bhagini hasn't joined, I think. She was just messaging me.
Can you hear me?
Yes, I can hear you.
Okay.
व्यजनम्
एतत् व्यजनं वेरि गुड् आन्सर् दिस् क्वेश्चन् आल्सो
एतत् ऊरुकम् ऊरुकम् एतत् ऊरुकम्
एतत् ऊरुकम् उत्तमम् अधुना वदतु
तत् पुष्पम्
तत् पुष्पं वेरि गुड् निवेदिता भगिनी
एतत् किम् एतत् पत्रम् एतत् परम एतत् दलं
पर्णं पर्णम् उत्तमं जया भगिनी
तत् किं तत् जलम्
उत्तमं सरस्वती भगिनी वदतु
एतत् वातायनम् एतत् किम् एतत् वातायनम्
उत्तमम् वन् बै वन् गिव् आन्सर्
एतत् किम् एतत् द्वारम्
उत्तमम् वदतु जया भगिनी
एतत् किम् एतत् नगरम्
उत्तमम् अधुना वदतु सरस्वती भगिनी
तत् किं तत् सेवफलं फलं सेवफलम्
अधुना पर्यन्तं पर्यन्तं सरस्वती भगिनी न उत्तरं दत्तवती नौ सरस्वती भगिनी इस् आन्सरिङ्ग् न अधुना वदतु निवेदिता भगिनी
एतत् किम् एतत् द्राक्षफलम्
द्राक्षाफलम्
द्राक्षाफलम्
अधुना वदतु
तत् किं तत् नारङ्गफलम्
उत्तमम् नारङ्गफलम् नारङ्गफलम्
नारङ्गफलम्
उत्तमम् अधुना वदतु जया भगिनी
तत् किं तत् कदलीफलम्
तत् कदलीफलम् अधुना वदतु सरस्वती भगिनी
एतत् किम् एतत् आम्रफलम्
उत्तमम् निवेदिता भगिनी
तत् किं तत् भोजनम्
उत्तमम् जया भगिनी
एतत् किम् एतत् पयोहिमम्
उत्तमम् सरस्वती भगिनी
तत् किं तत् फेनकम्
तत् किं तत् फेनकम् गिव् आन्सर् वन् बै वन्
एतत् किम् एतत् नाणकम्
उत्तमम्
तत् किं तत् उपनेत्रम्
उत्तमम्
तत् किं तत् भोजनगृहम्
उत्तमं भोजनगृहम् अधुना वदतु तत् चरणं किमस्ति तत् चरणम् तत् चरणम् अधुना वदतु
तत् किं तत् पेषकं
किम्
वदतु भवती तत् पेषकं
तत् पेषकम् तत् किं तत् उद्ग्रुयानम्
उदग्रयानं वदतु एकवारं प्लीज़् रिपीट्
उदग्रयानम्
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 उत्तमम् अधुना वदतु कोऽपि
एतत् किम् एतत् गृहम्
उत्तमम् अतीवसुन्दरम्
एतत् किम् एतत् मिश्रकम्
उत्तमम्
एतत् किम् एतत् व्याघ्रणम्
व्याघरणम्
तत् किं
तत् किं
तत् युतकं
हा वदतु वदतु तत् किं तत् युतक युतकम्
एतत् किम् एतत् दन्तफेनकम्
उत्तमम्
तत् किं तत् रेलयानम्
आम् अधुना वदतु
एतत् किम् वनम्
एतत् वनम् जया भगिनी
तत् किं तत् कङ्कटं कङ्कतं
कङ्कतं कङ्कतं
कङ्कतं
कङ्कत् एतत् तत् किं तत् कङ्कतं
कङ्कतम्
एतत्
अधुना किम्
एतत् कङ्कणम्
कङ्कणम् एतत् कङ्कणम्
तत् पत्रम्
तत् पत्रम् उत्तमम्
एतत् सङ्गणकम्
एतत् सङ्गणकम् अधुना पश्यतु अत्र वि हेव् सीन् आल्रेडी अकारान्तः पुल्लिङ्गः शब्दः एण्डिङ्ग् वित् अह that is masculine gender word and we have now seen neuter gender word akarantah pulli napunsakalingah shabdah ends with am aduna we will see sharira avayavah body part
avayavah
we have already seen this but you three can repeat one by one. There are many pictures. One by one, one picture. Who will read this? Jaya Bhagini?
Keshah.
Pashatu Atra. Vadanam Mukham.
Vadanam Mukham.
Face. Keshah.
केशः
ललाटं
भ्रूः
नेत्रं
कर्णः
उत्तमं
मुखं ग्रीवा
उत्तमं
ग्रीवा मीन्स् नेक्
हा नेक् ग्रीवा मीन्स् नेक् मुखं मीन्स् माउथ् कर्णः मीन्स् इयर् नेत्रं मीन्स् आय् ग्रीहु मीन्स् ऐब्रो ललाटं मीन्स् फोर् हेर् केशः मीन्स् हेर् मस्तकं मीन्स् कण्टिन्यू वित् चिबुकं
चिबुकं
जय भगिनी
चिबुकं चिबुकं
देन्
कपोलः
नासिका मस्तकं
Very good. Now we will see next picture and Adhuna Saraswati Bhagini Badatu.
Mukham, mouth. Dantaha, teeth.
Means tooth.
Tooth.
And dantaha means teeth.
Means a teeth, yeah. Dantaha. Jihwa is tongue. Adharaha. Adharaha is lip.
It's lower lip. Lower lip. Only lower lip.
Adhara lip. Oh, okay.
Oshtav.
Means
both lips.
Oshtav.
Oshtav means both lips. And adharaha means lower lip.
What is for upper lip? Upper lip?
We can't use word for upper lip, but adharaha we will see in Sanskrit literature very many times.
Oh.
And that's why there is adharaha.
Okay.
This is jihva, tongue, dantaha, tooth. Now we will see next picture and Nivedita Bhagini.
Deha Shariram, body.
Deha Shariram. Now see, I want to say this. The word is, these words are for body, but Deha is masculine word. Shariram is neuter gender word. And one word in feminine gender, that is Kaya. That means many words will be there for one word, and they can be in different genders also.
Interesting. Yes.
So body means Deha in masculine, Shariram in neuter gender, and Kaya in feminine gender. Got this?
Yes. Thank you.
So now start with this Hastaha.
Hastaha hand karamulam esha
vama
karamulam
no 1 minute please. Karamulam means wrist. Manibandha. Now this is Eshaha Bahuhu.
Arm.
Arm. Now
Udaram. Stomach.
Very good.
Esha Nabihi.
Nabihi. Nabihi means belly button.
Nabihi. Belly
level. Aduna.
Esha Katihi.
West.
Waist.
Vakshasthalam.
Vakshasthalam. Chest.
Kandaha.
Shoulder.
Kurparaha. Means elbow. Kurparaha means elbow.
Kurparaha, elbow. Dhanyavada.
Uttamam. Now see, this is hand. This is hand. Hastaha. Nakham. Nail. And anguli. Finger. Who will read all these names?
You want me to read?
Yes.
Okay.
start from there. Padaha means leg.
Padaha means leg. Yes, you can see now difference between padaha and charanam.
Charanam means
foot. Padaha means leg. What is this?
The whole leg.
Uruhu. Uruhu. Tai. Januhu.
Janu.
Ni. Janga. Jangha.
Janu means ni. Jangha. Jangha means calf. Jangha means calf.
Calf.
Guttaha. Guttaha means ankle.
Ankle.
Guttaha means ankle.
Okay.
Charanam.
Foot.
Charanam.
Yeah.
Foot. Charanam means foot. Okay. Now read this.
Okay.
All these parts of the parts of the leg.
Eshah uruhu. Etat janu. Esha. Janga. Jangha. Eshah gutaha.
Gutaha.
Etat charanam.
Very good.
Etat aduna. Asti.
Etat asti. That means bone.
Kapala. Eshaha kapala.
Eshaha kapala. That means
skull. Kapala skull.
Now see this. Hridayam. Heart. Etat hridayam. This is brain. Mastishkam. Ekat mastishkam. Kanthaha. Throat. Eshaha kanthaha. Eshaha kanthaha. Vadatu. Ka vadati.
If you want, I can.
Tat hridayam. Eshaha kanthaha. Tat etat mastishkam.
Very good. So we have seen pullingam, sarvanama, shabdaha, and we used these words to ask questions. Saha, eshaha, kaha. Actually, question word is this. Kaha. These two words we can use for both, for asking question and giving answer. And we have seen napusakalingam sarvanama shabdaha, tat, etat, and kim. The word kim to ask question, tat and etat we use for answer also and question answer. Got it?
Yes.
So
yes.
You can hear this poem from this link. So Adhuna, we will stop. Do you like our class today?
Yes, very nice.
I'm going to stop my recording now.